विह्यख्यं मनसामस्य इच्छन्निन्द्राग्निज्ञास उत वास जातान् नान्याजुमत्प्रमतिरस्ति मह्यं स बान्धिजम् वाजयन्ती मतक्षम् अश्रभम् हि भोरिदावत्तराभाम् विजा मातुरुतवा घास्यालात् अथा सोमस्य प्रजते जुवभ्यामिन्द्राग्निस्तमञ्जनयामि नव्यम् माच्छेत्मरश्मीङ्घृतिनाधमानाः पितॄणाम् शक्तिरनुयच्छमानाः इन्द्राग्निभ्याङ्कम् वृषणो मदन्ति ताह्यद्रेधिषणाजा उपस्थे युवाभ्याम् देवेधिषणामदायेन्द्राग्ने सोममुषते सुनाति तावश्विना भद्रहस्ता सुपाणि आधावतम् मधुना भृङ्क्तमप्सो युवामिन्द्राग्ने वसुनो विभागे तपस्तपाशुश्रवव्रत्रहत्ये ताभा सद्या बर्हिषि यज्ञे अस्मिन् प्रचर्षणि मादयेथाम् सुतस्य प्रचर्षणिभ्यः प्रतनाहवेषु प्रपृथिव्यारिचाथे दिवश्च प्रसिन्दभ्यः प्रगिरिभ्यो महित्वा प्रेन्द्राग्ने विश्वभुवनात्यन्या आभरतम् शिक्षतम् वज्रबाहो अस्माकिन्द्राग्नि अवतम् शचीभिः इमे नु ते रश्मजः सूर्यस्य जेभ्यः स भित्वम् पितरो न आसन्न पुरन्दरा शिक्षतम् वज्रहस्तास्माकिन्द्राग्नि अवतम् भरेषु तन्ना मित्रो वरुणो मामहन्तामदितः सिन्धः पृथिवी उत द्यौः